सर्वेभ्यः नमस्कारः। अद्य सिद्धान्तकौमुद्याः त्रिप्रत्ययप्रकरणे षष्ठः पाठः, नवम्बर् मासस्य पञ्चमः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं पररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते। आदौ अष्टाध्यायीं किञ्चित् पठामः। प्रातिपदिकात् स्वौजसमोच्छस्ताभ्यां भिस् ङेभ्यां भिस् लतिभ्यां भिस् लसोऽसाम् इयोः सुप् क्रियाम् अजाद्यतष्टाप वन्नेभ्योमीप उगितश्च वनोरथ पादोऽन्यतरस्याम् न षट्स्वस्त्रादिभ्यः मनः मनो बहु गृहेः दाबुभाभ्याम् अन्यतरस्याम् अनुपसर्जनात् सिद्धाणैद्वयसत् दग्मै मात्र च दग्मै मात्र च तयप् ठक् ठै कैक्वरपः यन्यश्च प्राचां ष्फसद्धितः सर्वत्र लोहितादिकसन्तेभ्यः कौरव्यमाण्डूकाभ्यां च वयसि प्रथमे द्विगोः इत्त्वप्रकरणम् अधीयमानमस्ति। इत्त्वविधानं क्रियते प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुखः। प्रत्ययस्था यः ककारः तस्मात् पूर्वस्य अकारस्य स्थाने इकारः अधीयते आपि परे अनेन सूत्रेण। तत्रैव वार्तिकद्वयमपि अस्ति इत्त्वविधानार्थं मामकनरकयोरुपसङ्ख्यानां। मामकशब्दस्य नरकशब्दस्य च कास पूर्वस्य इत्थं भवति उभयत्र ककारः प्रत्ययस्थानात् मामक इत्यत्र आदेशस्य ककारः नरकः नरक इत्यत्र धातोः ककारः तत्रापि ककारात् पूर्वस्य अकारस्य इत्थं भवति त्यक् त्यपोश्च त्यक् प्रत्ययस्य त्यप् प्रत्ययस्य च ककारस्य पूर्वस्य प्रत्ययस्थः एव ककारात् पूर्वस्य अकारस्य इत्थं भवति इति एकं सूत्रमस्ति वार्तिकद्वयमस्ति येन इत्थं विधीयते ततः इत्थं निषिध्यते कैश्चित् शास्त्रैः न यासयोः यास यत् तथा तत् एतयोः शब्दयोः इत्थं न भवति यका सका इति उदाहरणं दत्तं त्यकनश्च निषेधः त्यकन् प्रत्ययार्थस्य इत्थं न भवति आशिषि उनश्च न आशीरर्थे यः उन् प्रत्ययः सदन्तस्य इत्थं न भवति जीवका भवका इत्यादीनि उदाहरणानि उत्तरपदलोपे न देवदत्तिका इत्यस्ति तत्र दत्त इति उत्तरपदस्य लोपः क्रियते देवका इति भवति तत्र ककारात् पूर्वस्य इत्थं न भवति क्षिपकादीनां च न क्षिपकादिगणे केचन शब्दाः पठिताः क्षिपका ध्रुवक इत्यादीनि तेषां शब्दानामपि इत्थं न भवति इति इत्थनिषेधः दृष्टः ततः अर्थविशेष इत्थनिषेधः आसीत् देन् पर्टिक्युलर् मीनिङ्ग्स् इत्व वास् प्रिवेण्टेड् तारका ज्योतिषि ज्योतिरर्थे अर्थात् नक्षत्रम् इत्यर्थे तथा अक्षः कनीनिका इत्यर्थे तारका इति भवति अर्थात् तारिका इति न भवति अन्येषु अर्थेषु इत्थं भवति तारिका एवं वर्णका तान्तवे तन्तूनां विकारः तान्तवं प्रावरणविशेषः इति दत्तं तदर्थे वर्णका इति भवति अन्येषु अर्थेषु स्तोत्री इत्यादिषु अर्थेषु वर्णिका इति इत्थं भवति वर्तका शकुनौ राजां पक्षी इत्यर्थे राजां मध्ये वर्तका इति भवति उदीचां तु वर्तिका अष्टका पितृदेवत्ये श्राद्धकर्म इत्यर्थे इत्थं नास्ति अष्टका इति अन्येषु अर्थेषु यथा अष्टाध्यायी इत्यर्थे अष्टिका इति भवति अतः सूतका पुत्रिका बृन्दारकाणां वेति वक्तव्यम् एतेषां शब्दानां वा अ इच्छेदः ककारात् पूर्वस्य अकारः आदेशः भवति पुत्रिका इत्यत्र इकारः अस्ति तस्य स्थाने अकारादेशे पुत्रका पुत्रिका इति रूपद्वयम् इतस्ततः तु अकारस्य स्थाने अकारादेशे सूतका वृन्दारका इति तदभावे इत्त्वपक्षे तु सूतिका वृन्दारिका इति सर्वत्र रूपत्रयं भवति अग्रे सूत्रमस्ति इदमेव प्रकरणम् अनुवर्तते उदीचाम् आतः स्थाने यकपूर्वायाः इति सूत्रमस्ति चत्वारि पदानि सन्ति उदीचाम् आतः स्थाने यकपूर्वायाः चत्वारि पदानि प्रत्ययस्थात् कात् पूर्वस्यात् यदाप्तस्वः इति पूर्णम् अनुवर्तते तदेव प्रकरणम् यकपूर्वस्य स्त्रीप्रत्यय आकारस्य स्थाने यः अकारः तस्य कात् पूर्वस्य इत् वा स्यात् आपि परे सो देर् आर् मेनि मोर् कण्डीशन्स् इन् दिस् सूत्र प्रत्ययस्थात् इट्सेल्फ् हेस् मेनि कण्डीशन्स् सो देर् आर् फ्यू मोर् हियर् आतः स्थाने स्त्रीप्रत्यय आकारस्य स्थाने यः अकारः earlier we just used to have an akara preceding the kakara now we have to go
into a bit more detail to see how that akara has been derived. Tri pratyaya akarasya sthane yaha akaraha. Tri pratyasya akaraha arthat tabadinam yaha akaraha asti. Tasya sthane akaraha. Ketana kanichana sutrani santi yahi rasvaha vidhiyate akarasya. Kenaha ityadishu. Kapratyaya pare urvasya rasvaha bhavati ityadhihi. ह्रस्वः विधीयते सो ह्रस्वस्य कारणेन स्त्री प्रत्ययस्य यः आकारः तस्य स्थाने ह्रस्वः भवति चेत् अकारः अस्ति तादृशः अकारः यकपूर्वः अकारात् पूर्वं यकारः ककारो वा भवेत् कात् पूर्वस्य अकारः अस्ति अकारात् परत्वेन प्रत्ययस्य ककारः अस्ति तस्य कात् पूर्वस्य इत् वा स्यात् अनेन सूत्रेण इदानीं विकल्पेन इत्वं विधीयते सो ही इज मैंडेटिंग एन ऑप्शनल इकार सो एज यूजुअल देयर इज अ प्रत्ययार्थ ककार सो प्रीसीडिंग द ककार यू हैव एन अकार विच हैज ओरिजिनली बीन डिराइव्ड फ्रॉम द आकार ऑफ स्त्री प्रत्यय एंड प्रीसीडिंग दैट अकार वी हैव ईदर य और क यक पूर्वायाः ईदर यकार और ककार So in such a case, there is an optional itta. So kenaha iti hrasvaha, aryaka adika iti dattam. So if you look at the pratika, kenaha iti hrasvaha in the book, Arya Shabdat Swarthike Kapratye. So starting with the word Arya. Arya Shismat Adadhyashtap. It is Utrena. Tap Pratyaha Kriyate. Tapikrate Arya Kirupam. Arya Shabdat Swarthike Kapratye. Swarthe Atyanta Swarthe Kapratyaha Vidhiyate. So you have Ka Arya Ka. कप्रते यकाराकारस्य केणः इति ह्रस्वः सो द आकार विच इज आर्या आफ्टर यकार गेट ह्रस्व बै केणः के परे कप्रत्यये परे अणः ह्रस्वः इत्यनेन ह्रस्वे कृते यु नौ हव आर्यक पुनः तापि अगेन नौ आर्यक इज अदन्त अदन्तत्वात् अजाद्यतष्टाप् इत्यनेन पुनः ताप प्रत्ययः क्रियते तापि कृते आर्यक आ इत्यस्ति स्वर्णदीर्घे आर्यका शब्दः तत्र यकारात् अकारस्य सो इफ् यु लुक् एट् आर्यक देर् इस् अ प्रत्ययस्थ ककार सो प्रिसीडिङ्ग् इट् इस् अ नकार विच् हेस् बीन् डिरैव्ड् फ्रोम् द त्री प्रत्यय आकार दट् इस् अफ् आर्या आर्या इत्यत्र तापः यः आकारः तस्य ह्रस्वेन अयम् अकारः निष्पन्नः अकारात् पूर्वत्वेन यकारः अस्ति सो सिन्स् आल् कण्डीशन्स् आर् साटिस्फैड् देर् इस् एन् आप्शनल् इत्वा सो यु केन् हाव् ईदर् आर्य आर्यिका आर् आर्यका गीताम् अकः स्थाने एकपूर्वायाः इत्यनेन विकल्पेन इत्वं विधीयते एवं चटकका चटकिका चटक इत्यस्मात् टाप् प्रत्ययः चटका इति भवति तस्मात् क प्रत्ययः स्वार्थिकः केणः इत्यनेन हस्य चटकक इत्यस्ति पुनः टाप् क्रियते चटकका इति इदानीम् अत्रापि त्रिप्रत्ययाकारस्य स्थाने अकारः अस्ति कात् पूर्वः अकारः यकपूर्वः अकारात् प्राक् ककारः अस्ति So in Aryaka, we have an Yakara preceding the Akara. In Jatakaka, we have a Kakara preceding the Akara. So in both cases, the Akara is optionally replaced by Ikara. So we have Jatakaka, Jatakika. Ataha Kim आकाशे भव आकाशिका आतः स्थाने इत्युक्ते स्त्री प्रत्यय आकाशस्य स्थाने यः आकारः तत्रैव वैकल्पिकम् इत्थं भवति इति उक्तम्। किमर्थम् इति चेत् आकाशिका इति उदाहरणं दत्तम्। आकाशिके इति प्रतीके आकाशेन निर्वृत्तं नगरं साङ्काश्यम्। साङ्काश्य इस् द नेम् आफ् अ सिटि। उनिछण् कठजिला इत्यादिना सङ्काशादिभ्यो न्यः। सो हिस् टेलिङ्ग् यू द डिरेवेशन् आफ् साङ्काश्य। सो साङ्काश्य सारि द सिटि इस् काल्ड् साङ्काश्य इस् डिरैव्ड् फ्रम् साङ्काश बै एडिङ्ग् न्यत्। यु एड् न्यत् आदिवृद्धिः। सो यु हेव् सङ्काश य आदिवृद्धौ साङ्काश य यस्येति च इति अकारलोपः। सो यु हेव् साङ्काश्य। साङ्काश्यशब्दात् भवार्थे धन्वयोपधात् मुन्य। सो यु हेव् अ उन्य सफिक्स् साङ्काश्ये भव। सो शी हू वाज़् बोर्न् इन् साङ्काश्य और् शी हू रिसैड्स् इन् साङ्काश्य इत्यर्थे हुञ् प्रत्ययः भवति साङ्काश्यशब्दात्। सः साङ्काश्य एण्ड् हुञ् युवोरनाकौ इत्यनेन उन्यः अकादेशः। सो साङ्काश्य अक यस्येति च इति अकारलोपः। सो द अकार आफ् साङ्काश्य द एण्डिङ्ग् अकार इस् यस्येति च। सो साङ्काश्य अक साङ्काश्यक इति जातम्। ततः टाप् यस्येति च इति अकारलोपः टाप्। सो नौ वि हेव् साङ्काश्यका। अत्र अकारात् पूर्वत्वेन यकारः अस्ति। द अकार इस् प्रिसीडेड् बै यकार एण्ड् फालोयिङ्ग् इट् इस् अककार आफ् द प्रत्यय। सो अदर् कण्डीशन्स् आर् साटिस्फैड् बट् दिस् अकार हेस् नाट् बीन् डिरैव्ड् फ्रम् त्रिप्रत्यय आकार। त्रिप्रत्यय आकारस्य स्थाने अयम् अकारः नास्ति। दट् इस् वै हि गिव्स् इट् रिवीशन् दिस् डैरेक्ट्लि फ्रम् द प्रत्यय। यु हेव् द अक प्रत्यय उञ्। सो साङ्काश्यक इत्यत् अकारः प्रत्ययस्य अकादेशेन जातः न तु स्त्रीप्रत्यय आकारस्य स्थाने। अतः आतः इति अस्ति सूत्रे उदीजाम् आतः स्थाने एकपूर्वायाः। तेन अत्र विकल्पेन इत्थं न भवति। प्रत्ययस्थात् कात् इत्यनेन नित्यम् इत्थं साङ्काशिका इति रूपम्। यक इति किम्? अश्विका यकपूर्वायाः अकारस्य अकारात् पूर्वं यकारः अथवा ककारः भवेत्। आरीका इतिवत् अथवा चटकिका इतिवत्। अश्विका इत्यस्ति अश्वशब्दात् टाप् क्रियते अश्विकेति। अश्वाशब्दात् कः? अश्वशब्दात् कापि अश्वा इति भवति। तस्मात् कप्रत्ययः केणः इत्यनेन ह्रस्वः। सो आतः स्थाने अकारः अस्ति अश्व क पुनः ता पुनः कापि अश्वका शब्दः। अत्र आतः स्थाने अकारः अस्ति प्रत्ययस्थककारः अस्ति किन्तु अकारात् पूर्वत्वेन यकारः ककारो वा नास्ति। इट् इस् नाट् यकपूर्व। सो द अकार इस् प्रिसीडेड् बै वकार एण्ड् नाट् य आर् क। अत्र अकारस्य आकारस्थानिकत्वे अपि यकपूर्वकत्वाभावात् इत्त्वविकल्पो न किन्तु प्रत्ययस्थात् इति नित्यम् इत्त्वम् इति भावः। सो इन् अश्विका वि डोण्ट् हाव् अ वैकल्पिक इत्त्व बिकास् द अ इस् नाट् प्रिसीडेड् बै य आर् क। स्त्रीप्रत्यय इति किम्? शुभञ्याति इति शुभञ्याः ज्ञाता शुभञ्या शुभञ्यिका। स्त्रीप्रत्यय आकारस्य स्थाने यः अकारः उदीचाम् आतः स्थाने इत्यस्ति। तत्र दीक्षितैः वृत्तौ किं लिखितम्? स्त्रीप्रत्यय आकारस्य स्थाने यः अकारः। केवलम् आकारस्य स्थाने अकारः इति न, स्त्रीप्रत्यय आकारस्य स्थाने अकारः इति। तथा किमर्थम् इति चेत् शुभञ्यता इति उदाहरणं दीयते। शुभम् इति मान्तम् अव्ययम्। शुभम् इति अव्ययमस्ति। शुभं याति, यु गेट् what is good ityarthe. Tasmin upapade, shubham ityasmin upapade, ya prapane iti dhatuho, anyebhyo api drishyate iti vich pratyayaha. So the dhatu is ya, shubham ya iti dhatuho, vich pratyayaha kriyate, shubhanya shabdat. So which is a sarvapahari pratyaya, so we are still left with shubhanya. Shubhanya shabdat swarthe kaha. Now we add the ka pratyaya. Kenaha ityanena rasvaha bhavati. So here also we have rasva. The ya becomes ya. Shubhanyaka iti bhavati. Ta. Kuna ta pratyaya krate. Shubhanyaka shabdaha. Atra yakarasya dhatvavayavasya strivajakatva bhavati itvavikalpo na. Now the akara. I mean, the akara has been derived from an akara, but that akara does not belong to stri pratyaya. Stri pratyaya akarasya sthane akaraha nasti. Kevalam akarasya sthane akaraha. So because of that, even though it is preceded by yakara and followed by kakara, all other conditions are satisfied. Always in a dalakritya. An example given for dalakritya. It is essential to make sure that the other conditions for sutra pravritti are satisfied. If you are questioning one part of the sutra, say for example, here we are questioning Sri Pratyayakarasya Sthane Iti Kimartham. So, Anye Sarvepi Niyamaha Atra Bhaveyu Tadaiva Dalakrityasya Uttamam Asamichinam Udaharanam Iti Vaktum Shakyate. So, Shubhanyati Iti Shubhanyaha Atra Sri Pratyayakarasya Sthane Akarahanasti Ityataha Itam Vaikalpikam Itam Nabhavati Hindu Pratyasthatityanena Nityam Itam. You should notice that in all cases where Ubija Mataha Sthane can apply, Pratyasthatkat will apply because it has a lesser number of conditions. Ubija Mataha Sthane is extending the number of conditions on Pratyasthat. So if Ubija Mataha Sthane does not apply, then Pratyasthat will apply to give a compulsory Itam. Satrapi Shubhanyika Ityatra Pratyasthat Ityanena Nityam Itvam Bhavati. Any questions? For Dugita Mata Sthane Yakapurvayaha. Yes, certainly. Yeah, is it? Sorry, Dhatanta Ekosya Nityam. Dhatvanta Yakoho. The yakara has to be at the end of a dhatu. Here the yakara is, the dhatu ends with akara, right? So there is an akara at the end. The yakara is not at the end of the dhatu here. If it is single, true. If it is a single letter, I mean, it need not be a word or a letter. Here there are two letters, right? Ya and a. If it is only yakara, you can either treat it as adi or anta. But there are two letters here. That is, vyapadeshi vadbhava applies only when there is a single entity. If there is only a, you can treat it either as akaradi or akaranta. But if there is one more letter along with it, you cannot. Here there are two letters, yakara and akara. So, it is an akaranta. Not the yakara is not at the end of the dhatu. Right? The next vartika, dhatvanta yakostu nityam. Ulita matasthane yakapurvayaha iti drishtam yakaraha kakaraha va purvam bhavetije. Now, if that yakara or kakara happens to be at the end of a dhatu. Dhatvanta yakoho. Yakaraha kakarova धातोः अन्ते अस्ति चेत् धात्वन्तयकारककारयोः उपरि विद्यमानस्य अकारस्य नित्यम् इत्त्वम् If that ya or ka belong to the end of a dhatu, then again itva is compulsory and not optional. Dhatvanta yakara kakara yohu upari vidyamanasya akarasya nityameva itvam natu vikalpaha ityarthaha. Sunayika ityasti. If you look at the vyakhyana, sunayiketi, नी धातोः उपसाध्यसि सो यु हैव द धातु नी प्रापणे इट इज नी यू ऐड अच् प्रत्यय सो नी अ सर्वधातुक अर्थधातुकयोः इति गुणे अयादेशे नय शब्दः सो नी बिकम्स ने इन डु गुण एषो यमायामः इत्यनेन अयादेशे नय इति भवति सु शोभनः नयः यस्याः सा सुनया सो यु इनिशियली डु अ टॉप ततः स्वार्थे कः ऑन द सुनया यू ऐड अ क प्रत्यय सुसुनया क इत्यस्ति केणः इति ह्रस्वः सुनय क इति जातम् पुनः टाप् ऑन द क प्रत्ययान्त वी ऐड टाप् सो इट बिकम सुनयका सुनयका शब्दः नाउ यू सी दैट ऑल कंडीशंस फॉर उदीचा मातः स्थाने आर सैटिस्फाइड स्त्री प्रत्यय आकारस्य स्थाने अकारः अस्ति सुनया इति तापः आकारस्य स्थाने केणः इति हस्वे अकारः प्रत्ययस्थात् अकारः अस्ति यकारपूर्वत्वमपि अस्ति सुनय् इत्यत्र किन्तु अयं यकारः धात्वन्तयकारः यु हाड् द नी धातु सो इट् बिकेम् ने एण्ड् देन् इट् बिकम्स् नय् सो इट् इस् स्टिल् अ धातु धातोः अन्ते यकारः अस्ति अतः अत्र विकल्पेन इत्त्वं न भवति नित्यमेव इत्त्वं भवति सुनयिका एवं सुपाकिका इत्यस्ति पच् धातोः निष्पन्नः अत्रापि पच् इत्यत्र कुत्रे कृते पाक् इति जातम् अत्रापि धात्वन्ते ककारः अस्ति सो सिन्स् इट् इस् ककार एट् द एण्ड् आफ् धातु नित्यम् इत्त्वं भवति न तु विकल्पेन सुनयिका सुपाकिका इति उदाहरणद्वयम् सो दट् इस् द डिफरेन्स् बिट्वीन् दिस् एण्ड् द प्रीवियस् वन् वेर् रविचन्द्रन् व्यास् देर् द धातु इस् या सो द धातु एण्ड्स् वित् एन् आकार विच् देन् बिकम्स् एन् अकार सो द एण्ड् आफ् द धातु वि स्टिल् हाव् द अकार एण्ड् नाट् यकार हियर् एट् द एण्ड् आफ् द धातु वि हाव् यकार इन् नय् नी बिकम्स् ने बिकम्स् नय् So at the end of the dhatu, we still have the yakar. Any questions? Agrimam sutramasti. Bhastresha jagya dvatma nai purvanam api. So we are continuing with itva vikalpa. त्रीणि पदानि सन्ति भस्त्रैषा जाज्ञा द्वास्व इति एकं पदं लप्तषष्ठीकं सो वि स्प्लिट् इट् एज़् भस्त्रा एषा अजा ज्ञा द्वा स्व देयर् आर् सिक्स् वर्ड्स् सो नैपूर्वाणाम् अपि प्रत्ययस्थात् कात् इत्यतः अतः इति अकारस्य इकारः इति अनुवर्तते उदीचा मातस्थाने एकपूर्वायाः इत्यतः उदीचाम् इति अनुवर्तते स्वेत्यन्तं युक्तषष्ठीकं पदम् सो इट् शुड् एक्चुअली हेव् बीन् भस्त्रेषा जाज्ञा द्वा स्वानां नैपूर्वाणाम् इट् शुड् हेव् बीन् षष्ठी विभक्ति दट् इस् फार् आल् दीस् वर्ड् सो लुप्तषष्ठीकं पदम् षष्ठी विभक्ति हेज़् बीन् डिलीटेड् सूत्रत्वात् साधुत्वं सो हौ डु वि से साधुत्व विदौट् विभक्ति इस् बिकास् इट् इस् अ सूत्र सौकृत्वात् साधु स्वभस्त्रेषा जाज्ञा द्वा स्व इत्येतेषाम् एषाम् अतः इत् वा स्यात् स्वकारस्य स्थाने ikarah vikalpena bhavati ittah so again the other conditions are also there pratyastha kakarat so there is a kakaram of the pratyaya so it has been preceded by that kakara is preceded by the akara so all the those conditions are also still there tadanta vidhinaiva siddhe naipurvanam api iti spashtartham so there is a word naipurvanam api so even when they preceded by nai so what is the significance of that word there has been a lot of debate going on and finally they have decided that it is not very significant bhashyakara says so it is not just when they are preceded by nai naipurvanam api it is then that is when they are preceded by nai and when something else is the purva pada generally even when there is a purva pada that is it is at the end of a samasa so that is why he says tadanta vidhinaiva siddhe this belongs to the angadhikara 7347 angadhikare padangadhikare tasya cha tadantasya cha iti paribhasha so tadanta vidhi pravartate angadhikare so because of that vai tadanta vidhi we already have it that for these words and when these words are at the end of the samasa we have itva so naipurvanam api iti spashtartham so it is just for better clarity which means even if that word is not there we can still get the desired meaning out of the sutra so the examples actually in the Kaumudi the examples come a bit later okay he just goes into a few other things and then gives the examples for clarity I'm giving the examples now so bhastra okay bhastra is a nitya strilinga word nishkantah bhastrayah iti vigrahe nirbhastraka so nirbhastraka nirbhastrika iti upadvayam asti vikalpena itvam so just see the examples first and then we go into the details एशका एशिका भस्त्रा एशा इत्यस्ति अतः तस्मात् अकच् क्रियते एतत् शब्दात् सो यू हैव एशका अत्र विकल्पेन इत्वे एशका एशिका इति रूपद्वयम् कृतशत्व निर्देशात् नेह विकल्पः एतिके एतिकाः यू हैव एशा एते एताः द सूत्र क्लियरली सेज एशा दैट इज द प्रथमैकवचने शत्वं कृतम् प्रथमैकवचने एव इत्वविकल्पः सो यू हैव एषका एषिका द्विवचने बहुवचने इत्वविकल्पः नास्ति यू हैव एतिके एंड एतिकाः सो लाइक एते एताः व्हेन यू डू अकच् इट बिकम्स एतिके एतिकाः नित्यमेव इत्वं कृतम् अत्र अजका अजिका सो भस्त्रैषा अजा अजशब्दे यः कात् पूर्वः आकारः तस्यैत्वं विकल्पेन भवति तत्त्वात् अजका अजिका इति रूपद्वयम् ज्ञका ज्ञिका जानाति इति ज्ञः सो तस्य स्त्रीलिङ्गे ज्ञा इति भवति सो पुनः कप्रत्यये स्वार्थे कप्रत्ययः ज्ञका ज्ञिका भस्त्रैषा जा ज्ञा द्वा द्विशब्दः इत्य द्विवचनान्तः So it becomes dve, dve is the form. When you add akach, it becomes dvake in one case. And dvike, itve krute, dvike iti rupam. Dve ityeva artha, it means two in strilinga. Vastraisha, jagya, dva, sva. Sva shabda. So you have nisvaka and nisvika. There is a vaikalpika itva. So these are the examples for all the words taken in the sutra so he does a bit more vichara about each word considered in the sutra bhastra grahanam upasarjanartham anyasya tu uttara sutrena siddham sutre prathamam padam asti bhastra bhastra iti vastutah nitya strilingam padam it is a nitya strilinga abhashita pumskaccha iti uttaram sutram asti The next sutra, the immediate next sutra is Abhashita Pumskaccha. Kena kim uchyate? Bhashita Pumskam na bhavati.
A word which exists in both pullinga and strilinga is called bhashita pumsaka. Say for example, if you have aja and aja, you have both in pullinga and strilinga. So it is a bhashita pumsaka. Now, nitya strilinga words, such as words which do not exist in pullinga, are called abhashita pumsakas. They are not bhashita pumsakas. They do not have the pullinga form. So for such words, abhashita pumsakasya, nityam vikalpena ittam bhavati iti agrima sutrena uchyate. Now since bhastra is a nitya strilinga, bhastra shabdasya nitya strilvat, abhashita pumsakacha ityanena iva vitra vikalpaha siddhyati. So by abhashita pumsakacha, we already have itva vikalpa. So why do should you include the word bhastra here? Asmin sutre bhastra grahanam kimartham iti prashnaha. Ateva uchyate bhastra grahanam upasarjanartham. Upasarjanam arthati yatha atra nishkrantaha nirgataha bhastrayaha iti samase bhastra shabdasya upasarjanartham asti. Upasarjanatve kim bhavati anya visheshanatvat. When it is an upasarjana, it is an adjective to something else. You can either have nirgataha bhastrayaha, nirgata bhastrayaha, nirgatam bhastrayaha. Which means that it can exist in all three lingas. Right? So when it exists in all three lingas, it is not an abhashita pumsaka. Bhashita pumsakatvam bhavati. Pullinge api asti, strilinge api asti, ityukte bhashita pumsakatvam asti. Tadatu abhashita pumsakacha ityanena vikalpaha na siddhyati. So if you have the original word bhastra, or when it is pradhana, since it is a nitya strilinga and abhashita pumsaka, from the following sutra we already have itva vikalpa. Yada tu upasarjanatvam bhavati, tada bhashita pumsakatvam asti ityataha, uttara sutrena itva vikalpaha na siddhyati, tadartham asmin sutre bhastra shabdasya grahanam. So when it is an upasarjana, bhastraisha ityanena itva vikalpaha, yadatu upasarjanatvam nasti, tada abhashita pumsakacha ityanena iva itva vikalpaha siddhyati. Ateya udaharanam dattam nirbhastraka nirbhastrika iti. Bhastraka bhastrika iti udaharanam datum shakyam. Kintu tadudaharanam agrima sutrasya bhavati asya sutrasya na bhavati ityatah. Yatra bhastra shabdasya upasarjanatvam asti tadrisham eva udaharanam dattam dikshitaihi. So for the word bhastra in this particular sutra, a proper example is where the word bhastra happens to be an upasarjana. Clear? Eha dva etayostu sapurvayoho na itvam. So next we have esha and dva. We saw examples. Eshaka, Eshika is one example. And Dvake, Dvike is another example. So he says, Esha, Dva, Eta, Yoho, Sapurva, Yoho. When there is a Puro Pada, that is when these words are at the end of a Samasa, Itvam Nabhavati. That's what you say. Kimartham Itvam Nabhavati. Antarvartini Vivaktim Ashritya. Asupaha Iti Pratishetha. Should remember that in all these conditions, the pratyasthat kaat purvasya atayadavya supaha comes in entirety. So you have asupaha, saha aap supah paro na chet. Iti bahu paribradaka ityatra patitam. So tathai vatra api bhavati. Aneshaka paramaishaka itvam na bhavati. Iti uchyate. Kimartham. Iti pashyamaha. Similarly we have advake paramadvake. So when they are preceded by something else, sapurva yoko, purva padam asti chete, itvam na bhavati, kevala yoreva itvam. Kimartham tatha, purva padam asti chet kaha kleshaha iti chete, antarvartini vibhaktim ashritya asupaha iti pratishedha. So the tattva bodhin, actually this sentence is not there in the Balamanorama, tattva bodhin yamasti, prakriya diyate spashtam. Na su etad su iti sthite. So you have the samasa. Say he is giving for aneshaka. You have to assume the same for the others. Akachi krite akachah pragyevava. You have then akach. Naitat purushe krite. You are doing a samasa by naitat purusha. अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते इति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिके लुकि. Actually, there should have been teradinam aha, but before that you have the look. Supodhatu pratipatike yoho ityanena pratyayasya look bhavati. Samase yaha supratyayaha saha. Samaske luki vishishtat punaha supi. Now the samasta pada is a pratipatika. So we again add supa. Tadanantaram teradinam aha ityatum bhavati, pararupam bhavati, tataha tam. When you do tadarinamaha and pararupa, it becomes akarantha. So now we add tak. Sada adhyasupah paraha. Now this tak, you have deleted a supratyaya by supodhatu pratiparikayoho. So we bring back that by pratyaya rakshana. So this will be supah paraha. Asupaha iti nishayadhata na bhavati. So we'll just look at the prakriya again in detail. You have na su etad su. नै इति सूत्रेण नै तत्पुरुषः क्रियते. अव्ययसर्वनाम्नाम् अकच् प्राप्तेः इत्यनेन एतत् शब्दस्य अकच् भवति स्वार्थे. न सु एतकद् सु. सुपोधातुप्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लोपः. देर् इस् अ सुप्रत्यय इनिशियलि विच् इस् डिलीटेड्. सो नौ यः न एतकद् न लोपो नन्यः इत्यनेन नन्यः नकारस्य लोपः. अस्मान् नुडति इत्यनेन नुडागमे अनेतकद् इति भवति. इदानीम् अस्य समस्तपदस्य कृत्तर्थसमासाश्च इति प्रातिपदिकसंज्ञा अस्ति. सो यु हाव् अनेतकद् सोजसमौट् इत्यनेन सुप्रत्ययः क्रियते. वि आर् एडिङ्ग् अनदर् सु. देर् वास् अन् इनिशियल् सुप्रत्यय बिफोर् द समास विच् हस् बीन् डिलीटेड्. सो आन् द समस्तपद वि आर् एडिङ्ग् सुप्रत्यय. इदानीं तिरादीनामः इत्यनेन अत्वं विभक्तौ परतः तदानीनाम् अकारः अन्तादेशः. सो दट् अकार इस् रिप्लेस्ड् बै अ. अतो गुणे इत्यनेन पररूपे अनेतक सु इत्यस्ति. इदानीं ह्रस्वकारान्तत्वम् अस्ति अनेतक इति. तस्मात् अजाद्यतस्ता इत्यनेन ताक् क्रियते अनेतक आ. सो हियर् देर् वास् एन् ओरिजिनल् सु प्रत्यय विच् हस् बीन् डिलीटेड्. सो वेन् वि ब्रिङ्ग् बेक् दट् बै प्रत्ययलक्षण we say that this aap is preceded by sukh. So asupaha iti pratishedha atra itvam na bhavati. Akasavarna dikha iti savarna dikha ha. Sados prastavananti yohu iti takara sthane sakara ha. Ane sakara iti sthi. Halgya bhyo dikha iti sthane na supratya sthya loka ha. Adesha pratya yohu iti sthane na shatve. Ane shaka iti rupo siddham. So this is how the form is derived. So here, since the taap is preceded by the sukh which has been deleted in the samasa, because of that, atra sapurvayoho, purvapadam asti chet, itvam na bhavati ityartha. Yes, have you something here? Where? Nalumatangasya will not apply here because this is not an angakarya korsu. That is why we can use pratyaya lakshana to bring back the sukh. If nalumatangasya applied, then we could not have brought back the sukh. And then we could not have used that argument saying there is no itva because of the sukh pratyaya. It is the same argument, essentially. Yes. Huh. No, it is the same thing. It is exactly the same as Bhakti Parivrajaka. The saying in the samasa like this, we cannot have ikra because there is the supratyaya is being brought by pratyaya lakshana and the tap is followed by, is preceded by the sukh. So wherever the tap is added after samasa, it is the same thing. If there is a tap initially, like say the previous thing where we saw nirbhastraka, in bhastra, when we start out it has tap. initially. So there, this thing will not apply. So wherever taf is being added after a samasa, after doing samasa, so everywhere the same argument will apply, and we cannot have it. Yes, yes, he is giving the same thing. So this thing is actually very confusing. This. Yes. Yes. Right. Aja. Vajra, Aja and Gya. Three. Yeah, but Sva is a different thing which we will see. That is why he goes on taking step by step, and there is a problem with each word here. For Bhastra, it applies only for Upasarchana. For Esha and Dva, it applies only for the plain word and not rendered as a Purvapada. Again, there is something for Sva which we'll see. Sorry? No, it will not be an abhashita pumskara. If it is an upasarjana, it is a bhashita pumskara, not an abhashita pumskara. Okay. Any other questions? So, we have concluded that for Esha and Dva, this sutra will apply only for the plain word and not when it is preceded by Purvapada. Okay. Svashabda grahanam samyopasarjanartham. So there is one more thing for Sva, which I think we will take tomorrow because it is a bit more complicated. So Bhastra, Esha, Aja, Gya, Dva. We have covered that. There is one more word, Sva. This is for Sva. The sutra applies only when it is either a Samya or Upasarjana. So why that is so, we will see tomorrow. Enakshara tamam nayam adhigam muheshwara krishnam vyakaranam pruktam tasme paanye namaha. మైత్రేయ నమస్కృత్య జరుపి పరిహాస విజయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే.